गणपते कुं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया जाते रुद्र शिवा तनोरघोरा पापकाशिनी तयानस्तनु वाशन्तमया गिरिशन्ताभिचागशेः या विशुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाक्षा वदामसे यथा नः सैवमिज्जगदयक्ष्मगुंसुमना असत् अध्यवोचदधिवक्ता प्रथमो देव्योऽभिषक् अहेगश्च सर्वाज्जम्भजन् सैवाश्च यातु धान्यः असौव्यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अपितो दिक्षुश्रितात् सहस्रशो वैशागुम् हेण एमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानो हन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोर्जा याश्च ते हस्त इषवः पराता भगवो वप अवतद्यदनुस्त्वगुम् सहस्राक्षशतेषु धे निशेर्य शल्यानाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या देहेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यास्तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्यु मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां वतये नमो नमः सत्पिञ्जराय द्विषेमते पथेना पतये नमो नमो बभ्रुषाय विव्याधिनेन्नाना पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथाविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिना व्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रीकाविभ्यो जिगागुं सद्भ्योमश्नतां पतये नमो नमो श्रीमद्भ्यो नक्तं चरद्भ्य प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आसेनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नम इषु कृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नमश्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावविन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धीमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो अन्त्रे जहनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शस्प्याय च फेन्याय च नमः श्रीकत्याय च प्रभाह्याय च നമ ഇരിണ്യായ ച പ്രപത്യായ ച നമ കേകും ശിരായ ച ക്ഷയണായ ച നമ കപർദിനേ ച പുലസ്തയേ ച നമോ ഗോഷ്ഠ്യായ ച ഗൃഹ്യായ ച നമസ്തൽപ്യായ ച ഗേഹ്യായ ച നമ കാട്യായ ച ഗവരേഷ്ഠായ ച നമോ ഹൃദയായ ച നിവേഷ്പ്യായ ച നമ പാഗും സവ്യായ ച രജസ്യായ ച നമ ശുഷ്ക്യായ ച ഹരിത്യായ ച നമോ ലോപ്യായ ചോലപ്യായ ച നമ ഊർമ്യായ ച സൂർമ്യായ ച നമ പർണ്യായ ച പർണശദ്യായ ച നമോപഗുരമാനായ ചാഭിഘ്നതേ ച നമ ആഖിദതേ ച പ്രഖിദതേ ച നമോ വക്കിരികേഭ്യോ ദേവാനോഗും ഹൃദയേഭ്യോ നമോ വിക്ഷീണകേഭ്യോ നമോ വിചിന്വത്കേഭ്യോ നമ ആനിർഹതേഭ്യോ നമ ആമീവത്കേഭ്യഃ ദ്രാപേ അന്ധസസ്പതേ ദരിദ്രം നീലലോഹിത ഏഷാം പുരുഷാണാം ഏഷാം പശൂനാം മാഭേർമാ രോമോ ഏഷാം കിഞ്ചന മമത യാതേ രുദ്ര ശിവ തനു ശിവ വിശ്വാഹ ഭേഷജേ ശിവ രുദ്രസ്യ ഭേഷജേ തയാനോ വൃഢ ജീവസേ ഇമാകും രുദ്രായ തവസേ കപർദിനേ ക്ഷയദ്വീരായ പ്രഭരാമഹേ മതിം യഥാ നശ്യമസദ്വിപദേ ചതുഷ്പദേ വിശ്വം പുഷ്ടം ഗ്രാമേ അസ്മിന്നനാതുരം മൃഡാനോ രുദ്രോതനോമയസ്കൃതി ക്ഷയദ്വീരായ നമസാ വിധേമതേ യച്ഛം ചയോർശ്ച മനുരാജജേ പിതാ തദശ്യ മതവ രുദ്രപ്രണീതോ മാനോ മഹാന്തമുതമാനോ അർഭകം മാന ഉക്ഷന്തമുതമാന ഉക്ഷിതം മാനോ വദേ പിതരം മോത മാതരം പ്രിയാമാനസ്തനുവോ രുദ്രരീരിഷഃ മാനസ്തോകേതന യേമാന ആയുഷി മാനോ ഗോഷു മാനോ അശ്വേഷുരീരിഷഃ വീരാന്മാനോ രുദ്രഭാമിതോ വധീർഹവിഷ്മന്തോ നമസാ വിധേമതേ ആരാത്തേ ഗോഘ്ന ഉത പൂരുഷഗ്നേ ക്ഷയദ്വീരായ സും നമസ്മേതേ അസ്തു രക്ഷാചനോ അധിചദേവ ബ്രൂഹ്യദാശന ശർമയച്ഛദ്വിവർഹാഃ സ്തുഹിശ്രുതം കർത്ത സദയ്യുവാനം മൃഗണ്ണ ഭീമമുപഹത്നുമുഗ്രം മൃഡാ ചരിത്രേ രുദ്രസ്തവാനോ അന്യന്തേ അസ്മന്നിവ പന്തു സേനാഃ പരിണോ രുദ്രസ്യ ഹേതിർവൃണക്തു പരി ദ്വേഷസ്യ ദുർമതിരഘായോഃ അവസ്ഥിരാ ഭഗവദ്യസ്തനുഷ്വമീഡ്വസ്തോകായതനയായ മൃഡയാ മീഡുഷ്ടമശിവതമശിവോ നഃ സുമനാഭവ പരമേ വൃക്ഷ ആയുധം നിധായ കൃത്യം വസാനാചര പിനാകം ബിഭ്രദാഗഹേ വികിരിത വിരോഹിത നമസ്തേ അസ്തു ഭഗവഃ യാസ്തേ സഹസ്രഗുംഹേതയോന്യമസ്മന്നിവ പന്തു താഃ സഹസ്രാണി സഹസ്രധാ ബാഹുവോസ്തവ ഹേതയഃ താസാമീശാനോ ഭഗവ പരാചീനാമുഖാകൃതി സഹസ്രാണി സഹസ്രശോ യേ രുദ്രാദിഭൂമ്യാ തേഷാം സഹസ്രയോ ജനേ വദന്വാനി തന്മസേ അസ്മിന് മഹത്യർണവേന്തരിക്ഷേ ഭവാ അധേ നീലഗ്രീവാശ്രിതികണ്ഠാ ശൈവാ അധഃ ക്ഷമാചരാഃ नीलग्रीवाश्रिति कण्ठादिवगुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिका सत्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृतायव्युधः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रामितस्थिरे तेषागुम् सहस्रयोजने वदन्वानि तन्मते नमो रुद्रेभ्यो ये पृथिव्याम् ये अन्तरिक्षे ये दिवि ये शावन्नम् वातो वर्षविषवस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् भे दधामि त्र्यम्बकैयजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुः सुधन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमधुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरम् च मे लयश्च मृतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुः त्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पथिरेक आसीत् सदाधारः पृथिवीद्यामुदे माम् कस्मै देवाय हविषा विदेम यात्मना बलदायस्य विश्व उपासने प्रतिशय्यस्य देवाः
यस्य छायामृतं यस्य मृत्युः तस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैक इन्द्राय जगतो बभूव यैषे अस्य द्विवदश्चतुष्पद कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया साहुः यस्येमा प्रदिशो यस्य बाहु कस्मै देवाय हविषा विधेम येनन्यो रुग्रा पृथिवी च दुर्ला येन स्वस्तवितम् येन नाकः यो अन्तरिक्षे रजसो विमान कस्मै देवाय हविषा विधेम यम् क्रन्दसि अवसातस्तभाने अभ्यैक्षे ताम् मनसारे जमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहते विश्वमायम् गर्भम् ददाना जनयन्ति अग्निम् ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यवश्य दक्षम् ददाना जनयन्ते यज्ञम् यो देवेष्वदि देव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसे जनिताय पृथिव्यायो वा दिवम् सत्यधर्मा जाना यश्चापश्चन्द्रा बृहति जान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि वनिता बभूव यत्कामास्तेजोमस्तन्नो हस्तमयस्या भवतयोरहीनाम् ॐ शान्ति 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 ॐ भद्रम् कर्णे विश्रणयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्टुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धः शवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तारि त्वमेव केवलम् धर्तारि त्वमेव केवलम् हर्तारि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्त्वम् माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठति सर्वम् जगदिदम् त्वैलयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ते नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्म भूर्भुवः सुभरो गणादिम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्मारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तव मनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्मारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगुन्धिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निषद्गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृतेत्पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम्बरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथर्वशीर्षम् योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायं प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दते इदमथर्वशीर्षमशिष्यायन देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्या मनश्चं जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माध्यावरणम् विद्यानविवेके कदाचनेति यो दूर्वाङ्गुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साध्यसमिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविज्ञात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद इत्युपनिषत् भद्रम् कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर्यजत्रा स्थिरैरङ्गैस्तुष्टु वागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्ध शवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुदा जहार शक्रप्रभिद्वान् प्रतिशश्चरस्रः तमेवम् विद्वान्नमृत इह भवति नान्यपन्था अयनाय विद्यते सहस्रशीरुषम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणम् परः नारायणपरम् ब्रह्मतत्त्वम् नारायणपरः नारायणपरो ध्याता ध्यानम् नारायणपरः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् అధో నిష్ట్యాపితస్యాన్నేనాభ్యాముపరితిష్ఠతి జ్వాలమాలా కులం భాతి విశ్వస్యాయతనం మహత్ సంతతగుం శిలాభిస్తులం మత్యాకోశసన్నిభం తస్యాంతే సుశిరగుం సూక్ష్మం తస్మిన్ సర్వం ప్రతిష్ఠితం తస్య మధ్యే మహానగ్నిర్విశ్వార్చిర్విశ్వతో ముఖః సోగ్రభుగ్విభజన్ తిష్ఠన్నాహారమజరక్కవిః తిర్యగోర్ధ్వమదస్యాయేరస్మయస్తస్య సంతత సంతాపయతి స్వం దేహమాపాదతలమస్తకః తస్య మధ్యే వన్నిషికారణీయోర్ధ్వాయవస్థితః నీలతో యదమధ్యస్థా విద్యుల్లేఖే వభాస్వరా నీవారసూకవత్తన్వే పీతాభా స్వత్యణూపమా తస్యాశిఖాయా మధ్యే పరమాత్మ వ్యవస్థితః స బ్రహ్మ స శివః స హరిశ్రేంద్ర సోక్షరః పరమస్వరాట్ ఋతగుం సత్యం పరం బ్రహ్మ పురుషం కృష్ణ పింగళం ఊర్ధ్వరేకం విరూపాక్షం విశ్వరూపాయ వై నమో నమః నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్ సహస్రపరమా దేవీ శతమూలా శతాంకురా సర్వగుం హరతు మే పాపం దూర్వా దుస్వప్ననాశిని కాండాత్ కాండాత్ పరోహంతి పరుష పరుష పరీ ఏవానో దూర్వే ప్రతను సహస్రేణ శతేన చ యా శతేన ప్రతనోచి సహస్రేణ విరోహసి తస్యాస్తే దేవీష్టకే విదేమహవిషాభయం అశ్వక్రాంతే రథక్రాంతే విష్ణుక్రాంతే వసుందరా శిరసా ధారయిష్యామి రక్షస్వ మాం పదే పదే భూమిర్ధేనుర్ధరణి లోకధారిణి ఉద్ధృతా శివరాహేణ కృష్ణేన శతబాహునా మృత్యుకే హన మే పాపం జన్మయా దుష్కృతం కృతం మృత్యుకే బ్రహ్మ దత్తాసి కాశ్యపేనాభిమంత్రితా మృత్యుకే దేహి మే పుష్టిం త్వయి సర్వం ప్రతిష్ఠితం మృత్యుకే ప్రతిష్ఠితే సర్వం తన్మే నిర్ణద మృత్యుకే తయాహతేన పాపేన గచ్ఛామి పరమాం గతిం ఈశానః సర్వవిద్యానాం ఈశ్వరః సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతి బ్రహ్మా శివో మే అస్తు సదా శివోం తద్విష్ణోర్పరమం పదగుం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాగృవాగుం సస్సమిందతే విష్ణోర్యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహే తన్నో రుద్ర ప్రచోదయాత్ ఓ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात्। हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्ति।